एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्री शेरबहादुर देउवा आर्थिकावस्थायाः सन्तुलने संस्थापनत्वेन व्यापारहानेः न्यूनीकरणत्वेन च नीति कार्यक्रमाणाम् निर्माणार्थम् सम्बद्धान् सर्वान् निर्दिशति। बाल्बाटारवर्तिनी प्रधानमन्त्री निवासे ह्य आयोजिते उद्योग वाणिज्यापूर्ति मन्त्रालयस्य मन्त्रालय स्तरीय विकास समस्या समाधान समिते उपवेशे प्रधानमन्त्री देउवा व्यापारहानेः चिन्ताजनक अवस्थायाम् दृष्टा स्थिति हेतोः व्यापारहानेः न्यूनीकरणत्वेन नीति कार्यक्रमान् निर्धार्य अग्रे वर्धितुम् निरदिशत। प्रधानमन्त्रिणा देवाभिधेन अर्थतन्त्रम् आत्मनिर्भरम् विधातुम् सम्भावनायुतेषु क्षेत्रेषु निवेशवर्धनत्वेन अग्रे वर्धितुम् च निर्दिष्टम्। प्रधानमन्त्री देउवा मन्त्रालयम् अन्तर्गतान् सर्वान् सर्वकारीय कार्यालयाञ्च स्वदेशीयोत्पादनेभ्य प्रोत्साहन प्रदानत्वेन नीतिम् निर्मातुमपि निर्दिष्टवान्। प्रधानमन्त्री देउवा व्यापारहानेः न्यूनीकरणाय विद्युतः उपभोगः वर्धनीयः इति चर्चयन् वैद्युत यातायात साधनानाम् वैद्युत चुल्लिकायाश्च प्रयोगवर्धनात्मिकाः नीतिः अग्रे वर्धयितुम् च सर्वेषाम् अधिकारिणाम् ध्यानम् आकर्षयत्। राष्ट्रपतिः विद्यादेवी भण्डारी भविष्यति सम्भाव्यम् जलसंकटस्य समाह्वयम् विचार्य भूमिगत जलस्रोतसः पुनर्भरणाय जलाधार क्षेत्रम् संरक्षितुम् ग्रामीणक्षेत्रे ह्रद पुष्करिणी जलाशय क्षेत्राणि निर्माय परम्परागत विधिम् रक्षितुम् च बलम् ददाति। यो विश्वजल दिवसस्य अवसरे शुभकामना सन्देशम् प्रदाय राष्ट्रपतिः भण्डारी एवं बलम् प्रादात्। एतस्मिन् एव अवसरे प्रधानमन्त्रिणा शेरबहादुरदेउवाभिधेन प्रदत्ते सन्देशे जलस्रोतसः प्रयोगे जनसंख्यायाः विपुलभागः आश्रितोस्तीति हेतोः जलभाण्डागारम् अभिज्ञाय सबलरूपेण उपयुज्य च उपलब्धानाम् जलभाण्डागाराणाम् जलस्य गुणस्तरस्य च संरक्षणम् सर्वेषाम् संयुक्त दायित्वमस्तीति उल्लिखितम् वर्तते। पेयजल मन्त्री उमाकान्त चौधरी गदति सर्वेषु सामुदायिक विद्यालयेषु शुद्धस्य स्वच्छस्य च पेयजलस्य व्यवस्थायै सर्वकारः प्रतिबद्धो वर्तते। विश्वजल दिवसस्य अवसरे सुन्दरी जलवर्तिनी मेलञ्ची पेयजल प्रशोधन केन्द्रे ह्य आयोजिते कार्यक्रमे मन्त्री चौधरी अवदत् मौलिकाधिकारस्य रूपेण स्थापितस्य पेयजलस्य स्वच्छीकरणस्य च सौविध्यम् सर्वेषु जनेषु प्रापयितुम् सर्वकारः प्रयासरतो वर्तते। असौ अस्यैव चैत्र मासस्य अभ्यन्तरे मेलञ्ची नद्याः जलस्य काष्ठमण्डपम् आनयनत्वेन कार्याणि विधीयमानानि सन्तीति ज्ञापयन् अभासत। याङ्ग्री ल्यार्के नद्योः जलम् संयोज्य काष्ठमण्डपम् आनेतुम् कार्याणि अग्रे वर्धितानि सन्ति। राष्ट्रपतिना विद्यादेवी भण्डारिणा एतद् विक्रमवर्षीया रेलवे अध्यादेशः क्रियान्वितो वर्तते। राष्ट्रपतिना भण्डारिणा मन्त्रिपरिषदः परामर्शेन नेपालस्य संविधानस्य अनुसारेण ह्य एतद् विक्रमाब्दीयः अध्यादेशोऽयम् क्रियान्वितः इति राष्ट्रपति कार्यालयस्य प्रवक्त्रा सागर आचार्येण प्रकाशितायम् विज्ञप्तौ ज्ञापितम् वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति सत्ता गठबन्धनस्य दलैः स्थानीय निर्वाचने सहकार्यम् विधेयम्। अध्यक्ष प्रचण्ड ह्य जनकपुर धामनी आयोजिते पत्रकार सम्मेलने वर्तमान सत्ता गठबन्धनम् संविधानस्य लोकतन्त्रस्य सम्प्रति प्राप्तोपलब्धीनाम् च रक्षायै एव निर्मितमस्तीति हेतोः निर्वाचनेऽपि गठबन्धनस्य पक्षे आत्मभिः स्थितम् परम् विशेषन् वस्तुगत निर्णय न कोऽपि विहित इत्यभासत। अध्यक्ष प्रचण्ड कतिपय दिनेषु मन्त्रिणाम् परिवर्तनम् सम्भवतीति भासमाण माओवादी केन्द्रेण गठबन्धन निर्माणाय निर्व्यूढाया भूमिकाया सर्वकारस्य निर्माणे विहितस्य त्यागस्य च कारणेन योग्यतायानुसारेण अतिरिक्ता मन्त्रालया माओवादी दलेन लप्स्यते इति विश्वासम् व्यक्तवान्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड जनयुद्धे आतानाम् अपाङ्गतायुतानाम् च व्यक्तिनाम् स्वास्थ्योपचारस्य उचित प्रबन्धनम् कर्तुम् सर्वकारस्य ध्यानाकर्षणम् कारयति। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे ह्य प्रधानमन्त्रिणा शेरबहादुरदेउवाभिधेन सह विमृश्य अध्यक्ष प्रचण्ड आतानाम् अपाङ्गतायुतानाम् च योद्धृणाम् समस्याम् समाधातुम् सर्वकारस्य ध्यानाकर्षणम् व्यददात्। असौ जनयुद्धस्य क्रमे कारावास जीवनम् यापयित्वा यातना पीडितेभ्य जनेभ्य सम्मानपत्रेण सह सहयोगम् दापयितुम् अपि अन्वरुणत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली एमाले दलेन प्रतिदिनम लोकप्रियता अधिगम्यमान स्थिति निश्चिनोति। दलस्य केन्द्रीय कार्यालय ह्य आयोजिते कार्यक्रमे अध्यक्ष ओली सर्वान संयोज्य नेतुम सबलम एकमात्र दलम एमाले दलम स्थिति न्यश्चिनोत। अध्यक्ष ओली अवदत एमाले दलम कस्यापि वर्ग विशेषस्य दलम नास्तीति हेतोः सर्वेषाम् क्षेत्राणाम् समस्याः अभिज्ञाय समाधातुम् सदैव तत्परम् वर्तते। नेपाल कम्युनिष्ट पार्टी एकीकृत समाजवादिनः अध्यक्ष माधव कुमार नेपालः सत्ता गठबन्धनस्य दलेषु एकता स्थानीय स्तराणाम् निर्वाचनम् यावत् स्थास्यतीति निश्चिनोति। समाजवादी प्रेस संघटनस्य नुवाकोट शाखया ह्य विदुरस्थाने आयोजिते पत्रकार सम्मेलने अध्यक्षो नेपालः निर्धारित दिनांके एव स्थानीय स्तराणाम् निर्वाचनम् भविता सत्तारूढ गठबन्धनस्य दलेषु नैर्वाचनिकम् सहकार्यम् च विधास्यतेति विश्वासम् व्यक्तवान्। अध्यक्षो नेपालः अवोचत एमसीसी नामिकाम् अमेरिका देशीय सहयोग परियोजनाम् संसद व्याख्यात्मकानुमोदनेन पारितीकर्तुम् सत्तारूढ वामदलानि सफलानि संवृत्तानि। सर्वोच्च न्यायालयेन स्थानीय स्तराणाम् निर्वाचने सहभागितायै त्यागपत्र प्रदानात्मकम् प्रावधानम् न क्रियान्वेतुम् अल्पकालिकः अन्तरिमादेशः प्रदत्तो वर्तते। न्यायाधीशस्य बम कुमार श्रेष्ठस्य एकल न्यायपीठेन आचार्य संहितायाः प्रावधानम् न क्रियान्वेतुम् ह्य अल्पकालिकः अन्तरिमादेशः प्रदत्तोऽस्ति। सर्वोच्च न्यायालयेन आदेशाभियाचन निवेदनम् विमृष्टुम् अस्यैव चैत्र मासस्य त्रयोदशे दिवसे उपस्थित्यै पक्षद्वयमेव आदिष्टमस्ति। सिन्धुपाल्चोक जनपदस्य हेलम्बु ग्रामपालिकायाः अध्यक्षेण निमा ग्ल्याजेन शेर्पा इत्यनेन निर्वाचनायोगम् विपक्षणम् विधाय आचार संहितायाः विरुद्धे आदेशाभियाचन निवेदनम् पञ्जीकारितम् आसीत्। लोकतान्त्रिक समाजवादी दल नेपालस्य अध्यक्ष मन्त ठाकुरः वर्तमान सर्वकारे सहभागितायाः विषये प्रधानमन्त्रिणा सह आत्मनाम् विमर्शनम् सञ्चलद् अस्ति इति वदति। इति समाचाराः।